एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। ऊर्जो जलस्रोत सेचन मन्त्री अनिल कुमार सिन्हा कथयति वैज्ञानिकाध्ययनेन तथ्याङ्कानां संकलनेन विश्लेषणेन च भविष्यति विपदः न्यूनीकरणे सुरक्षित समाजस्य निर्माणे च महत्वपूर्ण भूमिका निर्वक्ष्यते। विश्व वातावरण दिवसस्य अवसरे जलवायु विज्ञान विभागेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री सिन्हा ऊर्जा आयोगस्य सचिवालयस्य संयोजनेन संचालितेन कार्यक्रमेण जलवातावरण सम्बद्धस्य जनचेतसः अभिवृद्धौ योगदानं प्रापयिष्यते इति विश्वासं व्यक्तवान्। मन्त्री सिन्हा नेपालस्य भौगोलिक विविधतायाः हिमालयीय पर्वतीय तराई क्षेत्राणां च कारणेन वातावरणं जलवायु प्रणाली च जटिलस्थितौ संवेदनशीलावस्थायाञ्चस्त इति चर्चयन् जलवायु परिवर्तनेन विपदः संकटः वर्धमानोऽस्तीति अवोचत्। कार्यक्रमे ऊर्जो जलस्रोत सेचन मन्त्रालयस्य सचिवः चिरञ्जीवी चटौत जलवायु परिवर्तनस्य कारणेन जलविप्लव भूस्खलनादीनां विपदः घटनानां वर्धमानात् भविष्यमेव संकटावस्थायामस्तीति अकथयत्। सचिवः चटौत जलवायु परिवर्तनस्य प्रभावस्य विरुद्धे योद्धुं जलवायु विपदो घटनानां पूर्वसूचना प्रविधेः जलवायु मैत्रिणः पूर्वाधारस्य च विकासस्य आवश्यकता अस्तीति प्रत्यपादयत्। तदवसरे जलवायु वातावरण विज्ञान विभागस्य वरिष्ठ वातावरणविद् राजुधर प्रधानांग वरिष्ठ जलविद् राम विकेशश्च संयुक्त रूपेण कार्यपत्रं प्रस्तुतवन्तौ। अवलोकनात् सेवा पारेन्तिक्याः जलवायु वातावरण प्रणाल्याः विकासक्रमस्य प्रविधे प्रयोगस्य भविष्यत्कालिक योजनायाश्च विषयान् असूचयताम्। अस्माभिः क्षयरोगः उन्मूल्यते राष्ट्रियम् अभियानम् अस्माकं योगदानम् इति समाघोषणया अद्य विश्व क्षयरोग दिवसः आयोज्यमानोऽस्ति। क्षयरोगस्य विषये सञ्चेतनां विस्तारयितुं प्रत्येकं वर्षे मार्च मासस्य चतुर्विंशे दिवसे दिवसोऽयं मन्यते। विश्व स्वास्थ्य संघटनस्य अनुसारेण नेपाले चतुर्विंशत्युत्तर द्विसहस्रतमे ख्रीष्टाब्दे सप्तषष्टिसहस्राणि नव क्षयरोगिणः प्राप्ताः वर्तन्ते। भक्तपुरस्य सूर्यविनायकस्थानात् काभ्रेपलाञ्चोक जनपदस्य धूलिखेलस्थानं यावत् षट्पङ्क्तीनां मार्गविस्तारस्य भौतिक प्रगतेः कार्यं वर्षत्रयस्य अवधौ प्रतिशतं सप्तषष्ट्या सम्पन्नमस्ति। वर्षत्रयात् पूर्वं प्रारब्धस्य षोडश किलोमीटर मितस्य मार्गस्य विस्तारस्य कार्यम् अधुनावधि प्रतिशतं सप्तषष्ट्या भौतिक प्रगतिः सम्भूता अस्ति इति सूर्यविनायक धूलिखेल सिन्धुली बर्दिवास मार्गायोजनया ज्ञापितं वर्तते। आयोजनाया समयावधि समाप्तिः पश्चात् गत मार्गशीर्ष मासे पुनः एकवर्षस्य कृते समयावधि वर्धितः आसीत्। मार्गस्य अस्य विस्ताराय सूर्यविनायकात् सागास्थानं यावत् सागास्थानात् धूलिखेलस्थानं यावत् च खण्डद्वय विभाजनं कृत्वा निर्माणानुबन्धनं विहितम् आसीत्। खानी भूगर्भ विभागेन चूर्णशिलायाः धातोः शिलादीनाञ्च षोडश खनिजवस्तूनाम् उत्खननाय अनुमतिः प्रदत्ता अस्ति। स्वदेशे विद्यमानानां खनिज सम्पदाम् अन्वेषणस्य कार्यात् विभागेन खनिजोद्योगानां विकासं कृत्वा देशीय औद्योगिकोत्पादनानाम् आर्थिक विकासस्य च उद्देश्येन उत्खननस्य अनुमतिः प्रदत्ता अस्ति। विभागेन स्वदेशे पञ्जीकृताभ्य स्वदेशीयाभ्य अन्तर्राष्ट्रियाभ्यश्च षट्षष्ट्युत्तरैकशत संस्थाभ्य अनुमति प्रदत्ता अस्तीति सूचना अधिकारी नारायण बास्कोटा असूचयत्। गृहमन्त्रिणा ओमप्रकाश अर्यालेन प्रतिनिधिसभा सदस्यानां निर्वाचनं सफलतापूर्वकं सम्पादयितुं महत्वपूर्ण भूमिकां निरूढवतां कर्मकराणां सुरक्षानिकायानां सम्मानो विहितोऽस्ति। ह्यः मन्त्रालये आयोजिते कार्यक्रमे मन्त्री अर्यालः कर्मचारिणः सुरक्षानिकायान् प्रशंसापत्रेण सममानयत्। तदवसरे गृहमन्त्री अर्यालः गत फाल्गुन मासस्य एकविंशे दिवसे सम्पन्नं प्रतिनिधिसभा सदस्यानां निर्वाचनं सफलतापूर्वकं निरूढवतां कर्मकराणां सुरक्षा निकायानाम् अन्येषां सम्बद्ध पक्षाणां च प्रशंसां च अकरोत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः अद्य उपविशति। दल केन्द्रीय कार्यालयस्य कार्यवाहक मुख्य सचिवेन कृष्ण प्रसाद दुलालेन ह्य सूचनां प्रकाश्य अद्य मंगलवासरे दिवा एकवादने ललितपुरस्य सानेपावर्तिने दल केन्द्रीय कार्यालयस्य बीपी स्मृति भवने उपवेशः उपविश्यमानोऽस्तीति संसूचितं वर्तते। राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछानेभिदस्य विरुद्धस्य संघटितापराधस्य सम्पत्शुद्धिकरणापराधस्य च न्यायिक प्रकरणस्य संशोधनं कृत्वा प्रत्यावर्तनस्य महान्यायाधिवक्तृ कार्यालयस्य निर्णयस्य विरुद्धे पञ्जीकारितम् आदेशाभियाचन निवेदनम् आधृत्य अद्य श्रवणं विधीयमानं वर्तते। सर्वोच्च न्यायालये ह्य श्रवणस्य असमाप्तेः पश्चात् अवलोकनस्य अवस्थायां संस्थाप्य अद्य श्रवणं विधीयमानं वर्तते। न्यायाधीश द्वयस्य विनोद शर्मणः अब्दुल अजीज मुसलमान इत्यस्य च संयुक्त न्यायपीठे अद्य श्रवणस्य श्रवणस्य असमाप्तेः पश्चात् विलोकनस्य अवस्थायाम् अद्यतन दिवसाय न्यायिक निवेदनमेतत् संस्थापितमस्तीति न्यायालयस्य प्रवक्ता अर्जुन कोइराला असूचयत्। वर्तमानार्थिक वर्षस्य श्रावणमासानन्तरं चितवन राष्ट्रिय निकुञ्जस्य सन्निकटस्थ क्षेत्राणां च सप्तदश गण्डकः मृताः वर्तन्ते। एतेषु एक विद्युत् प्रवाह स्पर्शेन मृतः अस्ति चेत् अन्य प्राकृतिक कारणेन मृताः सन्ति इति निकुञ्जस्य सूचनाधिकारी अविनाश थापा मगर असूचयत्। मुगु जनपदस्य रारा विमानस्थले ह्यस्तन दिवसात् नेपाल वायुसेवा निगमेन नियमित रूपेण उड्डयनं प्रारब्धमस्ति। नेपालगंज नगरात् प्रत्येकं सप्ताहं वार चतुष्टयम् उड्डयनस्य व्यवस्था विहिता अस्ति इति ज्ञापितं वर्तते।